लब्धग्रन्थस्तुतोऽलं लिकुचकविवरेणेह निन्येदनानि श्रीभर्तुः प्रीतिवृद्ध्यै विविधशुभकृतिः केवलं यस्तु कुर्वन् निर्लेपो दग्धकर्मा मतिकृतिकरणैर्लोकशिक्षां च कर्तुम् देवैर्वृष्टामृतार्चः प्रवचनचतुरो मे प्रवृत्तृत्वदः स्यात् स्नातो देवाभिषेक्ता सदरिदरधरस्तन्त्रशास्त्रानुवृत्त्या सम्यक् सम्पूज्य विष्णुं वरतुलसिकया दर्शनीयोऽथ भुक्त्वा नानालोकाभिनन्दी गुरुरथविलसद्व्याख्यया सान्ध्यकृत्यम् कृत्वा गोविन्दलीला कथक उरुकथां वैष्णवीं वाचयेन्नः मान्योपन्यासधन्यो हरिरखिलगुणो ब्रह्मवेदैकवेद्यः कर्ता विश्वस्य मोक्षं शुभसुखविषयं रातिभक्तेभ्य इत्थम् सत्तर्कैः साधयित्वा श्रुतिशतसहितैः सूरिसूनुं विजित्य व्याख्याता तस्य पूर्णप्रमतिरनुदिनं व्याख्ययाप्याययेन्माम् साम्नस्त्रैविक्रमार्याद्व्यरचयदनुभाष्यं शतग्रन्थकर्ता सोदर्यं स्वं विरक्तं यदिमकृतमहासद्गुणं विष्णुतीर्थम् वादीन्द्रं पद्मनाभं प्रियमथ च परान् सद्गुणान् श्लाघ्यशिष्यान् योनेकान् सद्ग्रहस्थान् अपि स विजयते कण्वतीर्थान्तिकस्थः संस्तव्यो वेदमानं समवितुमतनो दोषधीर्यः क्षणान्ति दीप्तां दुष्टशिलानि श्रुतिविवरणकृद्वर्णितस्तम्भिताब्धिः अङ्गुल्या गण्डवाटा वतुलबलचणौ चालने यस्य नालम् प्राग्वाटो वावटूढो मम मनसि लसेदप्यलाव्येकलोमा।